गिरित्रताम् कुरुमाहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगत यक्ष्मगुम् चुमना असत् अध्यवोचदधि वक्ता प्रथमो दैव्योऽभिषक् अहीगश्च सर्वाम् भयम् सर्वाश्रयातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्तु मङ्गलः ये क्षेमागुम् रुद्रा अभितो दिक्षुश्रुता सहस्रशो वैशागुम् हेड इमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अतो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मियोर्ज्याम् याश्च ते हस्त इषवः पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु दे निशीर्य शल्याणामुखा शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विषय्यो बाणवागुम् उता अनेशन्नस्येषव आभुरस्य निषङ्गतिः या ते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाया नातताय धृष्णवे उभाभ्यामुत ते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुरिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्मिञ्जराय त्विषीमते पतीनाम् पतये नमो नमो बभ्लुषाय विव्यादिने नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्रायाततामिने क्षेत्राणाम् पतये नमो नमः सूतायाहन्त्याय वनानाम् पतये नमो नमो रोहिताय सपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय रन्धयते पत्तीनाम् पतये नमो नम कृत्सवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नम ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकाविभ्यो जिगागुम् सद्भ्यो मुष्णताम् पतये नमो नमोऽसि मद्भ्यो नक्तम् चरद्भ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुरुञ्चानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम तिष्ठद्भ्यो दावभ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यः त्रिगुंहतीभ्यश्च वो नमो नमो कृत्सेभ्यो कृत्सपतिभ्यश्च वो नमो नमो प्रातेभ्यो प्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः शुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नम श्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिबिविष्टाय च नमो मीनुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्ध्वरे च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नमः ऊर्व्याय चावस्वन्याय च नमः श्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जगन्याय च बुद्धियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिर्दते च नमो वर्मिने च वरूथिने च नमो बिल्विने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो कृष्णवे च प्रमुषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषु धीमते च नमः सीक्ष्णे श्रवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः कार्याय च नीभ्याय च नमः सूर्याय च सरस्याय च नमो नाद्याय च वैशल्ताय च नमः कूप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेध्याय च विद्युत्याय च नमः ईद्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः सीत्याय च कूल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतात्याय च लात्याय च नमः शष्प्याय च पेण्याय च नमः स्रिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च शयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः कार्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय च विघ्नते च नमः आखिदते च प्रखिदते च नमो अक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षेदकेभ्यो नमो विचिन्मत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीमत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मारोमो येषाम् किञ्च नाममत् या ते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजीतया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने शयद्वीराय प्रमरामहे मतिम् यता नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृळानो रुद्रोतनो मयस्कृते शयद्वीराय नमसा विधेमते यच्चम् च योऽस्य मनुरायजे पिता तदश्याम तव रुद्रप्रणीतौ म మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానోవధే పితరం మోత మాతరం ప్రియామానస్తనువో రుద్రరీరిషః మానస్తోకేతన ఏ మాన ఆయుషి మానో గోషు మానో అశ్వేషురీరిషః వీరాన్మానో రుద్రభామితో వధీర్ అవిష్మంతో నమసా విధేమతే ఆరాత్తే గోగ్ర ఉత పూరుషగ్నే శయద్వీయాయ సుం నమస్మేతే అస్తు రక్షాచనో అధి చ దేవ ప్రూయతాచన శర్మ యచ్చ ద్విబలాః సువిశ్రుతం గర్త సదం యువానం మృగన్న భీమముపహత్వముగ్రం క్రీడాచరిత్రే రుద్రస్తమానో అన్యంతే అస్మన్నివ పంతు సేనా పరిణో రుద్రస్య హేతిర్వృణత్వ పరి ద్వేషస్య దుర్మతిరధాయో అవస్థిరా మగవధ్యస్తనుష్వమీడోకాయతనయాయ మృడయ మీడుష్టమశివతమ శివో న సుమనా భవ రమే వృక్ష ఆయుధం నిధాయ కృత్తిం వసాన ఆచరపి నాగం విభ్రదాగహీ విగిరిద విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం ఏతయోర్న్యమస్మన్నివ పంతు తాః సహస్రాణి సహస్రదా బాహువోస్తవ హేతయః తాసామీశానో భగవః పరాచీనాముఖాకృతి సహస్రాణి సహస్రశో యే రుద్రా అధిభూమ్యా తేషాగుం సహస్రయోజనే వధన్వాని తన్మసే అస్మిన్మహత్యర్నవేంతరిక్షే భవా అధే నీలగ్రీవాశిటికంఠా శర్వా అధః క్షమాచరాః నీలగ్రీవాశిటికంఠాదివగుం రుద్రా ఉపశ్రితాః ఏ వృక్షేషు సస్మింజరా నీలగ్రీవా విలోహితాః ఏ భూతానామధిపతయో విశిఖాతక్కపర్దినః ఏ అన్యేషు వివిధ్యంతి పాత్రేషు పిబతో జనాన్ ఏ పతాం పతిరక్షయ ఐలభృదాయ్యుధః ఏ తీర్థాని ప్రచరంతి శ్రీకావంతో నిషంగిణః య ఏతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్థిరే తేషాగుం సహస్రయోజనే వధన్వాని తన్మసే నమో రుద్రేభ్యో ఏ పృథివ్యాం ఏంతరిక్షే ఏ దివ్యేషామన్నం వాతో వర్షమిషవస్తేభ్యో దశ ప్రాచే దశ దక్షిణా దశ ప్రతిచీర్గశోర్ధ్వాస్తేభ్యో నమస్తే నో మృడయంతు తేయం విష్మో యశ్చ నో వేస్యతం భోజం భే దదామి త్ర్యంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ బంధనాత్ మృత్యోర్ముక్షీయమామృతాత్ యో రుద్రో అగ్నవ్యో అప్సు యోషధీషు యో రుద్రో విశ్వ భువనా వివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాశా మృత్యో మర్త్యాయ హంతవే కార్యజ్ఞస్య మాయయా సర్వానవయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః హేనాన్నేనాంద్యాయ స్వా నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తముష్టు హియస్విషస్సు ధన్వాయో విశ్వస్య క్షయతి భేషజస్య యక్ష్వా మహేశౌ మనసాయ రుద్రం నమో భిర్దేవమసురం దువస్య అయం మే హస్తో భగవానయం మే భగవత్తరః अयम् मे विश्वभे सजो यगुम् शिवाभिवर्षणः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसीमा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसृतिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च महादेतम् च मे वाच्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च महोजश्च मे सहश्च महायुश्च मे जरा च महात्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यम् च महाधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमानम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुखम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लृप्तम् च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शञ्च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीलम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नाम यच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सग्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रम् च मौद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कोयवाश्च मेऽन्नम् च मे क्षुच्च मे ब्रीहयश्च मे यवाश्च मे माशाश्च मे तिराश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे णवश्च मे शामाकाश्च मे निवाराश्च मे
अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च मापश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पन्ताम् वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवे च म इन्द्रश्च च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे दाभ्यश्च मेधिपतिश्च म उपागुंशुश्च मे अन्तर्यावश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे श्रुतश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवले च मे द्रोणकलशश्च मे वायव्यानि च मे पुत्रभृच्च म आधवनीयश्च म आग्नेयद्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्ष मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवक्षश्च मे त्रिवक्षा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्टवाच्च मे पष्टौहे च म उक्षा च मे वशा च मर्षभश्च मे देहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्रायो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताग्श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाक्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे ष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे स्ताविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे अष्टाचत्वारिगुंशच्च मे वाजश्च प्रथमश्च पिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडादेवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्था मदानिषगुं शिषद्विश्वे देवाक्तवाच पृथिवीमातर्मामाहिगुंसीर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यातगुं शुश्रूषेयाम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद सभूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उदामृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अथोऽध्यायादुष्य पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्वौ दैत्पुरुषः पादोऽस्यैः भवात् पुनः ततो विश्वम् व्यक्रामत शासनादशने अभि तस्मात् विराजजायत विराजो अधिपुरुषः सजातो अत्यरिष्यदा पश्चात् भूमिमतो मुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्याखिराज्यम् भीष्म इद्म शरद्दविः सप्तास्या सन्परिदयः त्रिसप्तः समिलकृताः देवा यद्यज्ञम् तन्वानाः अबद्धन् पुरुषम् पशुम् त्वम् यज्ञम् परिहिषि प्रौक्षन्न पुरुषम् जातमग्रतः येन देवा अयजन्ता साद्या ऋषयश्चये तस्माज्ञाः सर्वभूतः संमृतम् वृषदार्ज्यम् पशोगुस्ताविश्चक्रे वायव्यान आरण्यान्नाम्याश्चये तस्माज्ञाः सर्वभूतः वृषस्सामा निजग्निरे छन्दागुम् निजग्निरे तस्मात् यजुश्चस्मादजायत तस्मादश्वा अजायन्त एकेचो भयादसः गावो अजग्निरे तस्मात् यस्माज्जाता अजावयः यत्पुरुषम् व्यजजो कविदाव्यकल्पयन् मुखम् किमस्य कौ बाहु का भूरोपादामुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरु तदस्य यद्वैश्वः पद्याम् रुद्रो अजायत चन्द्रमा मनसो जातः चक्षोस्सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् श्रीष्णौ द्यौ समवर्तत पद्याम् भूमिर्मिषश्चोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेदम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा धन्यदास्ते दातापुरः साध्यमुदा जहार शक्रप्रविद्वान् प्रति सस्यतस्रः त्वमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सृजन्ते यत्र पूर्वे साध्या सन्ति देवाः अभ्यः सम्भूतम् पृथिव्यैरसा च विश्वकर्मणः श्रमवर्धता हि तस्य त्वष्टा विदद्रूपमेते तत्पुरुषस्य विश्वमानानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमतः परस्तात् अमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् वदमिज्यन्ति वेदसः यो देवेभ्यः आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मणे रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदद्ब्रुवन् यस्वैवम् ब्राह्मणो विद्या
तस्य देवा अनन्वशे श्रीष्यते लक्ष्मीस्य पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यान्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः भूत्वम् जिगातु मे शशम् शन्नो अस्तु द्विपदे षञ्चतुष्पदे ॐ
शान्ति शान्ति शान्तिः ॐ भद्रम् कर्णेभिःशृणुयामदेवाः भद्रम् पश्येमाश्यभिर्यजत्राः स्थिरैरङ्गैः सुष्ठु वागुंसस्तनूभिः व्यशेमदेवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः य एवम् वेदा अथ गन्धर्वगणाः स्वानब्राट् अङ्गारिर्बम्भारिः हस्तः सुहस्तः कृशानुर्विश्वावसुः मूर्धन्वान्सूर्यवर्चाः कृतिरित्येकादश गन्धर्वगणाः देवाश्च महादेवाः रश्मयश्च देवागरगिरः नैनम् गरोहिनस्ते य एवम् वेदा गौरीमिमाय सलिलानि दक्षते एकपदे द्विपदे सा चतुष्पदे अष्टापदे नवपदे बभूवुषे सहस्राक्षरा परमे व्योमन्निते वाचो विशेषणम् अथ निगदव्याख्याताः ताननुक्रमिष्यामः वराहवस्व तपसः विद्युन्महसोधूपयः श्वापयो गृहमेधाश्चेत्येते ये चेमेषिमि विद्विषः पर्जन्या सप्त पृथिवीमभिवर्षन्ते वृष्टिभिरिते एतयैव विभक्तिविपरीताः सप्तभिर्वातैरुदीरिताः अमूल्लोकानभिवर्षन्ते तेषामेषा भवति समानमेतदुदकम् उच्चैत्यवचाभिः भूमिम् पर्जन्या जिन्वन्ते दिवम् जिन्वन्त्यग्नय इति यदक्षरम् भूतकृतम् विश्वे देवा उपासते महर्षिमस्य गोप्तारम् जमदग्निमकुर्वता जमदग्निराप्यायते छन्दोभिश्चतुरुत्तरैः राज्ञः सोमस्य तृप्ता सः ब्रह्मणा वीर्यावता शिवानः प्रदिशो दिशः तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे ಶಂಚತುಷ್ಪದೆ ಸೋಮಪ ಅಸೋಮಪ ಇತಿ ನಿಗದವ್ಯಾಖ್ಯಾತ ಸಹಸ್ರವೃದಿಯಂ ಭೂಮಿಃ ಪರಂ ವ್ಯೋಮ ಸಹಸ್ರವೃತ್ ಅಶ್ವಿನಾ ಭುಜ್ಜೂನಾ ಸತ್ಯಾ ವಿಶ್ವಸ್ಯ ಜಗತಸ್ಪತಿ ಜಾಯಾ ಭೂಮಿಃ ಪತಿರ್ವ್ಯೋಮ ಮಿಥುನಂತಾ ಅತುರ್ಯತುಃ ಪುತ್ರೋ ಬೃಹಸ್ಪತಿ ರುದ್ರಃ ಸರಮಾ ಇತಿ ಸ್ತ್ರೀ ಪುಮಂ ಶುಕ್ರಂ ವಾ ಮನ್ಯದ್ಯದತಂ ವಾ ಮನ್ಯತ್ ವಿಶುರೂಪೇ ಅಹನೀ ದ್ಯೌರಿವಸ್ಥಃ ವಿಶ್ವಾ ಹಿ ಮಾಯಾ ಅವಧ ಸ್ವಧಾವಂತೌ ಭದ್ರಾವಾ ಪೂಷಣಾ ವಿಹರಾತಿರಸ್ತು ವಾಸಾತ್ಯೌ ಚಿತ್ರೌ ಜಗತೋ ನಿಧಾನೌ ದ್ಯಾವಾ ಭೂಮಿ ಚರಥ ಸಗುಂಸಖಾಯೌ ತಾವಶ್ವಿನಾ ರಾಶಭಾ ಶ್ವಾಹವಂ ಮೇ ಶುಭಸ್ಪತಿ ಆಗತಗುಂ ಸೂರ್ಯಯಾ ಸಹ ತ್ಯುಗ್ರೋಹ ಭುಜ್ಜುಮಶ್ವಿನೋದ ಮೇಘೇ ರಯಿನ್ನ ಕಶ್ಚಿನ್ನ ಮೃವಾಂ ಅವಾಹ ತಮೋಹ ದುರ್ನೌಭಿರಾತ್ಮನ್ವದೇಭಿಃ ಅಂತರಿಕ್ಷ ಪೃಥ್ವಿರಪೋದಕಾಭಿಃ ತಿಸ್ರಃ ಕ್ಷಪಸ್ತ್ರಿರಃ ತಿವ್ರಜದ್ಭಿಃ ನಾಸತ್ಯಾ ಭುಜ್ಜುಮೋಹತು ಪತಂಗೈಃ ಸಮುದ್ರಸ್ಯ ದನ್ವನ್ನಾದ್ರಸ್ಯ ಪಾರೇ ತ್ರಿಭಿರಥೈ ಷಡಪದ್ಭಿಃ ಷಡಶ್ವೈಃ ಸವಿತಾರಂ ವಿತನ್ವಂತಂ ಅನುಭಗ್ನಾದಿಶಾಂಬರಃ ಆಪಪೂರ್ಷಂಬರಶ್ಚೈವ ಸವಿತಾರೇ ಪಶೋಭವತ್ ತ್ಯಗುಂ ಸುತೃಪ್ತಂ ವಿರಿತ್ವೈವ ಬಹು ಸೋಮ ಗಿರಂ ವಶೇ ಅನ್ವೈತಿ ತುಗ್ರೋ ವಕ್ತ್ರಿಯಾಂತಂ ಆಯಸೂಯಾನ್ ಸೋಮ ತೃಪ್ಸುಷು ಸಸಂಗ್ರಾಮಸ್ತಮೋದ್ಯೋತ್ಯೋತಃ ವಾಚೋಗಾಪಿ ಪಾತಿ ತತ್ ಸತದ್ಗೋಭಿಸ್ತವಾತ್ಯೇತ್ಯನ್ಯೇ ರಕ್ಷಸಾನನ್ವಿತಾಶ್ಚ ಯೇ ಅನ್ವೈತಿ ಪರಿವೃತ್ಯಾಸ್ತಃ ಏವಮೇತೌ ಸ್ಥೋ ಅಶ್ವಿನಾ ತೇ ಏತೇದ್ಯುಃ ಪೃಥಿವ್ಯೋ ಅಹರಹರ್ಗರ್ಭಂ ದಧಾತೆ ತಯೋರೇತೌ ವತ್ಸಾವಹೋರಾತ್ರೇ ಪೃಥಿವ್ಯಾ ಅಹಃ ದಿವೋ ರಾತ್ರಿಃ ತಾ ಅವಿಸೃಷ್ಟೌ ದಂಪತಿ ಏವ ಭವತಃ ತಯೋರೇತೌ ವತ್ಸೌ ಅಗ್ನಿಶ್ಚಾದಿತ್ಯಶ್ಚ ರಾತ್ರೇರ್ವತ್ಸಃ ಶ್ವೇತ ಆದಿತ್ಯಃ ಅಹೋಗ್ನಿಃ ತಾಮ್ರೋ ಅರುಣಃ ತಾ ಅವಿಸೃಷ್ಟೌ ದಂಪತಿ ಏವ ಭವತಃ ತಯೋರೇತೌ ವತ್ಸೌ ರುದ್ರಶ್ಚ ವೈದ್ಯುತಶ್ಚ ಅಗ್ನೇರ್ವೃತ್ರಃ ವೈದ್ಯುತ ಆದಿತ್ಯಸ್ಯ ತಾ ಅವಿಸೃಷ್ಟೌ ದಂಪತಿ ಏವ ಭವತಃ ತಯೋರೇತೌ ವತ್ಸೌ ಉಷ್ಮಾ ಚ ನಿಹಾರಶ್ಚ ವೃತ್ರಸ್ಯೋಷ್ಮಾ ವೈದ್ಯುತಸ್ಯ ನಿಹಾರಃ ತೌ ತಾವೇವ ಪ್ರತಿಪದ್ಯೇತೆ ಸೇಯಗುಂ ರಾತ್ರಿ ಗರ್ಭಿಣಿ ಪುತ್ರೇಣ ಸಂವಸತಿ ತಸ್ಯಾವಾ ಏತದುಲ್ಬಣಂ ಯದ್ರಾತ್ರೌ ರಶ್ಮಯಃ ಯಥಾಗೋರ್ಗರ್ಭಿಣ್ಯಾ ಉಲ್ಬಣಂ ಏವಮೇತಸ್ಯ ಉಲ್ಬಣಂ प्रजयिष्णु प्रजया च पशुभिश्च भवति य एवम् वेद एतमुद्यन्तमपि यन्तम् चेते आदित्यः पुण्यस्य वत्सः अथ पवित्राङ्गिरसः पवित्रवन्तः परिवाजमाचते पितैषा प्रत्नो अभिरक्षति व्रतम् महुः समुद्रम् वरुणस्तिरोदधे धीरा इच्छे कुर्धरुणे स्वारभम् पवित्रम् ते विततम् ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः अतप्ततोऽर्णदामो अश्नुते श्रुता स इन्द्वहस्तन्तस्तमाशत ब्रह्मा देवानाम् असतः सद्येततक्षुः ऋषयः स्वस्ताराश्चयत् सर्वे त्रयो अगस्त्यश्च नक्षत्रै शङ्कृतो वसन् अथ सवितुश्वास्यावर्तिकामस्य अमीयरुक्षा निहिता स उच्चा नक्तम् ददृशे गुहचिद्दिवेयुः अरब्धानि वरुणस्य व्रतानि विचाकश्चन्द्रमा नक्षत्रमेते तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो न प्रचोदयात् तत्सवितुर्वृणीमहे वयम् देवस्य भोजनम् श्रेष्ठगुम् सर्वधातवम् तुरम्भगस्य धीमहि अपागुहमतः सवितातृभिन् सर्वान् दिवो अन्धसः नक्तन्त्यान्यान् भवन् दृशे अस्य स्नातम् भविष्यामः नाम नामैव नाम मे न पुंसकुम् पुमागस्त्रस्मि स्थावरोऽस्म्यत जङ्गमः यजेयक्षियष्टाहे च मया भूतान्ययक्षत पशवो मम भूतानि अनुबन्ध्योऽस्म्यहम् विभुः स्त्रियः सतेः ता उमे पुगुंस आहुः पश्य दक्षन्मविचेरन्दः कविर्यपुत्रस्य इमाचिकेता यः सा विजानाः सवितुः पिता सत् अन्धो मणिमविन्धत् तमनम् गुलिरावयत् अग्रीवः प्रत्यमुञ्चत् तमजिह्वा असश्चता ऊर्ध्वमूलमवाच्छाखम् वृक्षम् यो वेद सम्प्रति न स जातु जनश्रद्धद्यात् मृत्युर्मारयादितिः हसितगुम् मृदितम् गीतम् वीणापणबलासितम् मृतम् जीवम् च यत्किञ्चित् अङ्गानि स्नेव विद्धि तत् अदृश्यग्श्रुष्यध्यायत् अस्माज्जाता मे मिथोचरन् पुत्रो निरुत्या वै देहः अचेतायश्च चेतनः शतम् मणिमविन्दत् सोनम् गुलिरावयत् सोऽग्रीव प्रत्यमुञ्चत् सोजिह्वो असश्चता नैतमृशम् विदित्वा नगरम् प्रविशेत् यदि प्रविशेत् मिथौ चरित्वा प्रविशेत् तत्सम्भवस्य व्रतम् आतमग्नेरतम् तिष्ठा एकाश्वमेकयोजनम् एकचक्रमेकधुरम्
वातत्राजि गतिम् विभो नरिष्यति न व्यधते नास्याक्षो यातु सज्जते यच्छेतान् रोहिताग्श्चाग्नेः रथे युक्त्वाधितिष्ठते एकया च दशभिश्च स्वभूते द्वाभ्यामिष्टये विगुंशत्या च तिसृभिश्च वहसे त्रिगुंशता च नियुर्भिर्वाय विहता विमुञ्च आतनुष्वप्रतनुष्वा उद्धमाधमसन्धमा आदित्ये चन्द्रवर्णानाम् गर्भमादेहि यः पुमान् इदम् सिक्तगुम् सूर्यगतम् चन्द्रमसेरसङ्कृधे वारादम् जनयाग्रेऽग्निम् य एको रुद्र उच्यते असङ्ख्याता सहस्राणि स्मर्यते न च दृश्यते एवमेतन्निबोधता आमन्द्रैरिन्द्रहरिभिः या हि मयूररोमभिः मा त्वा केचिन्निये मुरिन्न पाशिनः दधन्वेवता इहि मामन्द्रैरिन्द्रहरिभिः यामि मयूररोमभिः मामा केचिन्निये मुरिन्न पाशिनः निधन्वेवता इमे अनुभिश्च महद्भिश्च निगृह्यैरसमायुतैः कालैर्हरित्वमापन्नैः इन्द्रायाहि सहस्रयुक् अग्निर्विभ्राष्टिवसनः वायुश्वेतसि कद्रुकः संवत्सरो विशोवर्णैः नित्यास्तेऽनुचरास्तव सुब्रह्मण्योगुम् सुब्रह्मण्योगुम् सुब्रह्मण्योम् इन्द्रागच्छ हरिव आगच्छ मेधातिधे मेषवृषणः स्वस्य मेने गौरावस्कन्दिन्न हल्यायै जारा कौशिकब्राह्मण गौतम ब्रुवाणा अरुणाश्वा इहागताः वसवः पृथिवीक्षितः अष्टौ दिग्वाससोऽग्नयः अग्निश्च जातवेदास्येत्येते ताम्राश्वास्ताम्ररथाः ताम्रवर्णास्तथासिताः दण्डहस्ताखादग्धतः इतो रुद्रा पराङ्गताः भद्रम् कर्णे विशृणुयामदेवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः सुष्ठुवागुंसस्तनुभिः व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महिम् महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति